इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्यां सिंगापुरदेशीयेन राष्ट्रपतिना थर्मन् षण्मुगरत्नम् इत्येतेन सह संवादं समाचरिष्यति। श्री षण्मुगरत्नम् इत्यसौ राष्ट्रपतिभवने राष्ट्रपतिपदासीनया द्रौपदी मुर्मू इत्यनया साकं चर्चां विधास्यति। अपरत्र विदेशमन्त्री डॉ एस जयशंकरः ह्यः नवदिल्ल्याम् अतिथिगणमान्यजनैः सह मेलनं कृतवान्। अत्रावधौ अर्धचालक औद्योगिकोद्यान कौशल विकास इत्येतान् विषयान् समाश्रित्य चर्चाः अपि जाताः। एकस्मिन् सामाजिक सन्देश पटले डॉ जयशंकरः अलिखत् यत् उभौ देशौ स्वद्विपक्षीय सम्बन्धानां षष्टितमे वर्ष सम्पूर्त्यवसरे उत्सवं समाचरतः। अनेन विश्वासः प्रकटितः यत् सिंगापुरदेशस्य राष्ट्रपतेः इयं यात्रा भारत सिंगापुरयोः समग्र रणनीतिक सहभागितायै महत्वपूर्णा भविष्यति। राष्ट्रपतिः थर्मन् इत्यसौ भारतस्य पञ्चदिवसीय यात्रायामस्ति। असौ शुक्र शनिवासरयोः ओडिशा राज्यमपि प्रति प्रस्थास्यति। केरल राज्ये विदेश राज्यमन्त्री कीर्तिवर्धन सिंहः अद्य सायंकाले कोच्चि इत्यत्र सेंटर फॉर पब्लिक पॉलिसी रिसर्च इत्येतस्य सार्वजनिक नीत्यानुसन्धान केन्द्रस्य सहयोगेन विदेश मन्त्रालयद्वारा आयोजितस्य 25,000 कोच्चि डायलॉग इत्येतस्य संवादस्य प्रथमं संस्करणं सम्बोधयिष्यति। अस्य संवाद कार्यक्रमस्य उद्देश्यं भारत खाति सहयोग परिषद देशानां मध्ये सम्बन्धान् प्रबलीकर्तुं सहभागितायाः प्रवर्धनमिति वर्तते। अस्याः परिषदः महासचिवः जसीम मोहम्मद अल्बुदैवी इत्यसौ एतस्मिन् कोच्चि संवाद कार्यक्रमे विशिष्टं भाषणं दास्यति। कार्यक्रमेऽस्मिन् प्रशासनिकाधिकारिणः नीतिनिर्मातारः व्यवसायिकाः हितधारकाश्च समागच्छन्ति इति। राष्ट्रिय राजधान्यां दिल्ल्यां प्रतिकूल वायु गुणवत्तायाः कारणेन ग्रैप इत्येतस्याः योजनायाः तृतीयं चतुर्थं च चरणं क्रियान्वितम्। वायु गुणवत्ता प्रबन्धनायोगेन अयं निर्णयः निर्णीतः। ग्रैप इत्येतस्याः तृतीय चरणान्तर्गतं समग्रे राष्ट्रिय राजधानी क्षेत्रे आवश्यकेतर निर्माण कार्येषु मार्ग निर्माण क्रियाकलापेषु इत्यादिषु कार्येषु प्रतिबन्धः ख्यापितः। दक्षिण कोरियायाः महाभियोगयुतः राष्ट्रपतिः यून सुक येवोल इत्येषः विधिप्रवर्तनाधिकारिभिः निगडितः। गतमासे मार्शल लॉ इत्येतस्य सैन्य विधेः कार्यान्वयने यून इत्येतस्य अल्पकालिक प्रयासाय तस्योपरि महाभियोगः आरोपितः अपि च विद्रोहः आक्षिप्तः दक्षिण कोरियायाः इति वृत्ते इदं प्रथम वारमस्ति यत् कश्चन वर्तमानः राष्ट्रपतिः निगडनस्थितौ विद्यते। दश राष्ट्रेभ्यः आगतानाम् एकविंशति श्रद्धालूनां दलमेकम् अद्य प्रयागराजस्थे त्रिवेणी संगमस्थले पवित्र महाकुम्भावसरे पवित्रावगाहनं विधास्यति। एतस्मिन् अवसरे 15,00,000 वैदेशिक श्रद्धालूनां पवित्रस्नानस्य सम्भावना अस्ति। भारतीय ऋतुविज्ञान विभागेन अनेक स्थानेषु आत्यन्तिक रूपेण सघन निहारस्य कारणेन दिल्ली राष्ट्रिय राजधानी क्षेत्राय नारंग वारणिकी संचेतना प्रसारिता अस्ति। भारतीय रेलवे विभागानुसारी दिल्ली नगरं प्रति गच्छन्ति 26 रेलयानानि चतुर्होरापर्यन्तं विलम्बेन प्रचलन्ति। खोखो इति विश्व चषक प्रतिस्पर्धायां भारतीय पुरुषदलं महिलादलं च प्रागुपान्त्यचक्रे समाविष्टवती इति वार्ताः।